ओम नमो भगवते वासुदेवाय। अथाष्टादशोऽध्यायः। श्रीशुक उवाच। प्रश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीं अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम् आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् धातुः कुः सिनीवाली राकाचानुमतिस्तथा सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात् अग्नीन् पुरिष्यानाधत्त क्रियायां समनन्तरः चर्षणी वरुणस्यासीत् यस्यां जातो भृगुः पुनः वाल्मीकिश्च महायोगी वल्मीकादभवत् किल अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोर्ऋषि रेतशिशिचतुः कुम्भे उर्वश्या सन्निधौ द्रुतम् रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात् पौलोम्यामिन्द्र आधत्त त्रीन् पुत्रानिति न श्रुतम् जयन्तमृषभम् तात तृतीयम् मीढुषम् प्रभुः उरुक्रमस्य देवस्य मायावामनरूपिणः कीर्तौ पत्न्याम् बृहच्छ्लोकस्तस्यासन् सौभगादयः तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः पश्चाद् वक्ष्यामहे दित्याम् यथा वावततारः अथ कश्यपदायादान् दैतेयान् कीर्तयामि ते यत्र भागवतः श्रीमान् प्रह्लादो बलिरेव च दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी जम्भस्य तनया दत्ता सुश्रुवे चतुरः सुतान् सम्राधं प्रागनुर्राधं प्रह्लादं प्रह्लादमेव च तत्स्वसा सिंहिका नाम राहुं विप्रचितो ग्रहीत् शिरोहरद् यस्य हरिश्चक्रेण पिबतोऽमृतम् सम्राधस्य कृतिर्भार्या सूतपञ्चजनम् ततः ह्रादस्य धमनिर्भार्या सूतवातापि मिल्वलम् योगस्याय त्वतिथये पेचे वातापि मिल्वलः अनुर्राधस्य सूर्म्यायाम् बास्कलो महिषस्तथा विरोचनस्तु प्रह्रादिर्देव्यास्तस्याभवत् बलिः पाणज्येष्ठम् पुत्रशतमसनायाम् ततोऽभवत् तस्यानुभावः सुश्लोक्यः पश्चादेवाभिधास्यते बाण आराध्य गिरिशं लेभे तद्गणमुख्यताम् यत्पार्श्वे भगवानास्ते यद्यापि पुरपालकः मरुतश्च दिते पुत्राश्चत्वारिंशन्नवाधिकाः तासन्न प्रजाः सर्वे नीता इन्द्रेण सात्मताम् राजोवाच कथं तासुरं भावमपौय्योत्पत्तिकं गुरो इन्द्रेण प्रापिताः सात्म्यम् किं तत्साधु कृतं हितैः इमे षद्दधते ब्रह्मन् ऋषयो हि मया सह परिज्ञानाय भगवन् स्तन्नो व्याख्यातुमर्हसि सूत उवाच तद्विष्णुरातस्य सबादरायणिर्वचो निशम्यादृतमल्पमर्थवत् सभाजयन् सन्निभृतेन चेतसा जगादसत्रायण सर्वदर्शनः श्रीशुक उवाच हतपुत्रादिति शक्रपार्ष्णिग्राहेण विष्णुना मन्युना शोकदीप्तेन ज्वलन्ति पर्यचिन्तयत् कदा नु भ्रातृहन्तारमिन्द्रिया राममुल्बणम् अक्लिन्नहृदयम् पापम् घातयित्वा शये सुखम् कृमिविड्भस्मसंज्ञासीद् यस्येषापि हितस्य च भूतद्रुक् तत्कृते स्वार्थम् किं वेद निरयो यतः आशासानस्य तस्येदम् ध्रुवमुन्नद्ध चेतसः मदशोषक इन्द्रस्य भूयाद्येन सुतो हि मे इति भावेन सा भर्तुराचचारा सकृत्प्रियम् शुश्रूषयानुरागेण प्रश्रयेण दमेन च भक्त्या परमया राजन्मनोज्ञैर्वल्गुभाषितैः मनोजग्राहभावज्ञा सुस्मितापाङ्गवीक्षणैः एवं स्त्रिया जडीभूतो विद्वानपि विदग्धया बाढमित्याह विवशो न तच्चित्रम् हि योषिति विलोक्यैकान्तभूतानि भूतान्यादौ प्रजापतिः स्त्रियम् चक्रे स्वदेहार्थम् यया पुंसाम् मतिर्ता एवम् शुश्रूषितस्तात् भगवान् कश्यपः स्त्रिया प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च कश्यप उवाच वरम् वरय वामोरु प्रीतस्तेऽहमनिन्दिते स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः पतिरेव हि नारीणाम् दैवतम् परमम् स्मृतम् मानसः सर्वभूतानाम् वासुदेवः श्रियः पतिः स एव देवतालिङ्गैर्नामरूपविकल्पितैः इज्यते भगवान् पुम्भिः स्त्रीभिश्च पतिरूपधृक् तस्मात् पतिव्रतानार्यः श्रेयस्कामाः सुमध्यमे यजन्तेनन्यभावेन पतिमात्मानमीश्वरम् सोहम त्वया चितो भद्रे ईदृक् भावेन भक्तितः तत्ते संपादये काममसतीनां सुदुर्लभम्। दितिरुवाच वरदो यदि मे ब्रह्मन् पुत्रमिन्द्रहणं वृणे अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ। निशम्य तद्वचो विप्रो विमनाः पर्यतप्यत अहो अधर्मः सुमहानद्य मे समुपस्थितः। अहो अद्येन्द्रिया रामो योऽसिन्मय्येह मायया गृहीतचेताः कृपणः पतिष्ये नरके ध्रुवम्। कोऽतिक्रमोऽनुवर्तन्त्याः स्वभावमिह योषितः धिङ्मां बता बुधम् स्वार्थे यदहं त्वजितेन्द्रियः। शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम्। न हि कश्चित् प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम् पतिं पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति च। प्रतिश्रुतं ददामीति वचस्तन्न मृषा भवेत् वधं नार्हति चेन्द्रोऽपि तत्रेदमुपकल्पते। इति सञ्चिन्त्य भगवान् मारीचः कुरुनन्दन उवाच किञ्चित् कुपित आत्मानं च विगर्हयन्। कश्यप उवाच पुत्रस्ते भविता भद्रे इन्द्रः देवबान्धवः संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि। दितिरुवाच धारयिष्ये व्रतं ब्रह्मन् ब्रूहि कार्याणि यानि मे यानि चेह निषिद्धानि न व्रतं घ्नन्ति यानि तु। कश्यप उवाच न हिंस्यात् भूतजातानि न सपेन्नानृतं वदेत् न छिन्द्यान्न खरोमाणि न स्पृशेत् यदमङ्गलम्। नाप्सु स्नायान्न कुप्येत न सम्भाषेत दुर्जनैः न वसीता धौतवास स्रजं च विधृतां क्वचित्। नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतं भुञ्जितो दक्यया दृष्टं पिबेदञ्जलिना त्वपः। नोच्छिष्टा स्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा अनर्चिता संयतवाङ्ना संवीता बहिश्चरेत्। नाधौतपादा प्रयता नार्द्रपान्नो उदक्षिराः शयितनापराङ्नान्यैर्ननग्ना न च सन्ध्ययोः। धौतवासा शुचिर्नित्यं सर्वमङ्गलसंयुता पूजयेत् प्रातराशात् प्राग्गोविप्रांशयमच्युतम्। स्त्रियो वीरवतीश्चार्चेत् स्रग्गन्धबलिमण्डनैः पतिं चार्च्योपतिष्ठेत ध्यायेत् कोष्ठगतं च तम्। सांवत्सरं पुंसवनं व्रतमेतद विप्लुतं धारयिष्यसि चेत् तुभ्यं शक्रः भविता सुतः। वाढमित्यभिप्रेत्याथ दितीराजन्महामनाः काश्यपं गर्भमाधत्त व्रतं चाञ्जो दधारसा। मातृश्वसुरभिप्रायमिन्द्र आज्ञायमानद शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत्कविः। नित्यं वनात् सुमनसः फलमूलसमित्कुशान् पत्राङ्कुरमृदोपश्च काले काल उपाहरत्। एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिनृप प्रेप्सु पर्यचरज्जिह्मो मृगहेव मृगाकृतिः। नाद्य गच्छद्व्रतच्छिद्रं तत्परोऽथ महीपते चिन्तां तीव्रां गतः शक्रः केन मे स्याच्छिवं त्विह। एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्षिता अस्पृष्टवार्य धौताङ्गृहि सुस्वापविधिमोहिता। लब्ध्वा तदन्तरं शक्रो निद्रापहरितचेतसः दिते प्रविष्ट उदरं योगेशो योगमायया। चकर्दसप्तधा गर्भं वज्रेण कनकप्रभं रुदन्तं सप्तधैकैकं मारोदीरिति तान् पुनः। ते तमूचुः पाट्यमानाः सर्वे प्राञ्जलयो नृप नो जिघांससि किमिन्द्र भ्रातरो मरुतस्तव। मा भैष्टभ्रातरो मह्यं यूयमित्याह कौशिकः अनन्यभावान् पार्षदानात्मनो मरुतां गणान्। न ममारतितेर्गर्भः श्रीनिवासानुकम्पया बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान्। सकृदिष्ट्वादिपुरुषं पुरुषो याति साम्यतां संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चितः। सजूरिन्द्रेण पञ्चाशत् देवास्ते मरुतो भवन् व्यपोय्य मातृदोषं ते हरिणा सोमपाः कृताः। दितिरुत्थाय ददृशे कुमारा ननलप्रभान् इन्द्रेण सहितान् देवी पर्यतुष्यद निन्दिता। अथेन्द्रमाह ताताः मादित्यानां भयावहम् अपत्यमिच्छन्त्यचरं व्रतमेतत् सुदुष्करम्। एकः सङ्कल्पितः पुत्रः सप्त सप्ता भवन् कथम् यदि ते विदितं पुत्र सत्यं कथय मामृषा। इन्द्र उवाच अम्बतेऽहं व्यवसितमुपधार्या गतोऽन्तिकं लब्धान्तरोच्छिदं गर्भमर्थबुद्धिर्न धर्मवित्। कृतो मे सप्तधा गर्भ आसन् सप्तकुमारकाः तेऽपि चैकैकशो वृक्नाः सप्तधा नापि ममृरे। ततस्तत्परमाश्चर्यं वीक्ष्याध्यवसितं मया महापुरुष पूजाया सिद्धि काप्यनुषंगिणी आराधनम भगवत ईहमाना निराशिषः ये तु नेच्छन्त्यपि परं ते स्वार्थ कुशलाः स्मृताः आराध्यात्म प्रदं देवं स्वात्मानं जगदीश्वरं को वृणीते गुणस्पर्शं बुधस्यान्नरकेऽपि यत् तदिदं मम दौर्जन्यं बालिशस्य महीयसि क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः। श्रीशुक उवाच इन्द्रस्तयाभ्यनुज्ञात शुद्धभावेन तुष्टया मरुद्भिः सहतां नत्वा जगाम त्रिदिवं प्रभुः एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि मङ्गलं मरुतां जन्म किं भूयः कथयामि ते। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे मरुदुत्पत्तिकथनं नामाष्टादशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।